च द्विनेत्रां च साभयां वरदान्विता पुष्पमालाधरां देवीं अम्बुजासनसंस्थिता पुष्पतोरणसंयुक्तां प्रभामण्डलमण्डिता पीताम्बरधरां देवीं मकुटे चारुबन्धना स्तनोन्नति समायुक्तां पार्श्वयोः दीपशक्तिका सौन्दर्यनिलयां शक्तिम् आदिलक्ष्मीमहं भजे।
जगदम्बिकया